इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। अष्टमस्य भारत जल सप्ताहः चतुर्विंशत्यधिक द्विसहस्रम् अद्यारभ्य नवदेहल्याम् आरप्स्यते। राष्ट्रपतिः द्रौपदी मुर्मुः भारत मण्डपे अस्य कार्यक्रमस्य उद्घाटनं करिष्यति। चतुर्दिवसीये कार्यक्रमे चत्वारिंशत् देशानां 200 वैदेशिक प्रतिनिधिभिः सह सम्मेलन 4000 प्रतिनिधयः भागं ग्रहीष्यन्ति। अस्मिन् कार्यक्रमे एका प्रदर्शनी अपि भवति, तत्र च समुचित जल प्रबन्धनाधारिताः विषयाः प्रदर्शयिष्यन्ते। नवदेहल्यां जलशक्ति मन्त्रालयस्य सचिवः देवाश्री मुखर्जी अवदत् यत् सुजल प्रबन्धनात् देशस्य आर्थिक वृद्धिः द्रुतगत्या वर्धिष्यते। जम्मूकश्मीरे विधानसभा निर्वाचनस्य प्रथमचरणीय मतदानाय सर्वाः सज्जताः अभवन्। अनन्तनाग, पुलवामा, सोपियां, कुलगाम, डोडा, रामबनही, किस्तवाड़ सप्त मण्डलानां चतुर्विंशतिः विधानसभा सनेषु श्वः अस्मिन् प्रथमे चरणे निर्वाचनं भविष्यति। कश्मीर मण्डलान्तर्गतं 16 निर्वाचनक्षेत्राणि सन्ति, जम्मू मण्डले 8 निर्वाचनक्षेत्राणि च सन्ति। प्रथमचरणे ऊनविंशत्यधिक 200 यावत् प्रत्याशीनां भाग्य निर्णयं 5.66 लक्षं यूनः समेत्य 23.27 लक्षाधिकाः मतदातारः करिष्यन्ति। निर्वाचनायोगेन चतुर्विंशति विधानसभाक्षेत्रेषु 670+2,300 मतदानकेन्द्राणि स्थापितानि, येन सुचारुतया उपद्रवमुक्तं च मतदानं सुनिश्चितं भवति। चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य नौसैन्यपतीनां सम्मेलनस्य द्वितीयसंस्करणस्य आयोजनम् अद्य नवदिल्ल्यां भविष्यति। सम्मेलनमिदं नौसेनापतिषु महत्वपूर्ण रणनीतिक संचालन प्रशासनिक विषयेषु विचार विमर्शस्य सौविध्य प्रदानस्य शीर्षस्तरीय द्विवार्षिक कार्यक्रम अस्ति। रक्षामन्त्रालयेन उक्तं यत् चतुर्दिवसीय सम्मेलनस्य अस्य आरम्भ नौसेनाप्रमुखस्य उद्घाटन सम्भाषणेन भविष्यति। नरेन्द्रमोदी सर्वकारस्य तृतीय कार्यकालस्य 100 दिनानि पूरितानि। मोदी सर्वकारस्य ऐतिहासिक तृतीय कार्यकालस्य प्रथम 100 दिनेषु नैके प्रमुखाः उपक्रमाः निर्णयाः च नीताः, यैः जनानां जीवने सकारात्मकः प्रभावः अभवन्, तथा च विकसित भारत 47+2000 इत्यस्य सुदृढः आधारः स्थापितः। भारतस्य नेतृत्वे अद्य नवदिल्ल्यां COP9 ब्यूरो इत्यस्य द्वितीया औपचारिकसभा तथा च निधि अनुमोदन समितेः तृतीया औपचारिकसभायाः आयोजनं भविष्यति। COP9 ब्यूरो इत्यस्य उपाध्यक्षत्वेन भारतं दिनद्वयस्य उच्चस्तरीयोपवेशनस्य आयोजने प्रमुखः अस्ति। विश्वस्य प्रमुखनिर्णयकर्तारः गणमान्यजनाः च एकत्रिताः भविष्यन्ति। हॉकी एशियाई चैम्पियनशिप अद्य चीनदेशस्य उलुम्ब्यूर नगरे 24+2000 एशिया चैम्पियंस चषक प्रतिस्पर्धायाः निर्णायक द्वन्द्वे भारतं चीनदलं सम्मुखीकरिष्यति। क्रीडायाः प्रसारणं भारतीय समयानुसारं 3 वादने भविष्यति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः जन्मदिवसावसरे भाजपादलीयः राष्ट्रियाध्यक्षः जगत प्रकाश नड्डा अद्य नवदिल्लीस्थिते दलमुख्यालये सेवापखवाड़ा इत्यस्य उद्घाटनं करिष्यति। इति वार्ताः।